निषिद्धैरप्येभिर् ललितमकरन्धो मधुकरैः करैरिन्दोरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम्। दशमश्लोकात् परम् अश्वत्थाम किं पुनः कारणं शोकस्य अस्त्रपरित्यागस्य वा। दशमश्लोके दृष्टवन्तः यदा सः द्रोणाचार्यः शोकेन उपरुद्धहृदयः आसीत् तदा शस्त्रं त्यक्तवान्। यदा शस्त्रं त्यक्तवान् तदा दृष्टद्युम्नेन तस्य मरणं विहितम् इति। एवं तस्य शोकस्य कारणं किम्, अस्त्रपरित्यागस्य अपि कारणं किम् इति अश्वत्थामा पृच्छति। सूतः तदा ननु कुमार एव कारणम्। ननु कुमार एव कारणं नाम अश्वत्थामा एव कारणम् इति। अश्वत्थामा कथम् अहमेव नाम, कथम् अहं कारणं भवामि मम पितुः शोकस्य मरणस्य वा अस्त्रपरित्यागस्य वा इति पृच्छति। सूतः अश्रूणि विमुच्य, अश्रुजलं विमुच्य श्रूयता। अश्वत्थामा हत इति पृथासूरुणा स्पष्टम् उक्त्वा स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा। तत् श्रुत्वा असौ दयिततनयः प्रत्ययात् तस्य राज्ञः शास्त्राणि आजौ नयनसलिलं चापि तुल्यं मुमोच। अश्वत्थामा हत, अश्वत्थामा मारितः इति पृथासूनुना, पृथा इति कुन्ति, सूनुः पुत्रः, पृथासूनुः कुन्त्याः पुत्रः युधिष्ठिरः, युधिष्ठिरेण स्पष्टम् उक्त्वा, स्पष्टम् उक्त्वा नाम सम्यक् उच्चैः यथा तस्य अवगमनं भवति तथा स्पष्टम् उक्त्वा स्वैरं नाम मृदु सॉफ्ट वचनेन शेषे अवशिष्टभागं गज इति किल, गजः इति किल व्याहृतम् उक्तं सत्यवाचा, सत्यं वाक् यस्य अस्ति सः सत्यवाक् भवति। सत्यवाचा इति अत्र युधिष्ठिरः पृष्ठे आगच्छति, यः सत्यम् एव वदति सः सत्यवाक् भवति। यस्य वाचि सर्वदा सत्यम् एव भवति सः सत्यवाक् भवति। अत्र सत्यवाचा इति पदं प्रयुक्तमस्ति। पृष्ठे अश्वत्थामा वदति मम मन्दभाग्यात्येव भवतः युधिष्ठिरस्य सत्यवाक् इति टैटल् अपि अपगच्छति इति। सत्यवाचा युधिष्ठिरेण स्वैरं, स्वैरं शेषे गज इति किल व्याहृतं नाम गज इति अवशिष्टः भागः, स्वैरं मन्दं किल व्याहृतम् उक्तम् इति। तत् श्रुत्वा एवम् अश्वत्थामा हत इति वाक्यं श्रुत्वा असौ द्रोणाचार्यः दयिततनयः, दयिततनयः, दयितः नाम प्रियः, तनयः पुत्रः, यस्य दयिततनयः, यः दयिते तनयः अस्ति नाम यस्य दयितः तनयः अस्ति सः दयिततनयः भवति नाम पुत्रे यस्य प्रीतिः अस्ति सः, यस्य प्रियम् अस्ति सः दयिततनयः भवति, तनयः पुत्रः दयितः प्रियः इति। तस्य राज्ञः प्रत्ययात्, तस्य राज्ञः नाम युधिष्ठिरस्य प्रत्ययात् विश्वासात्, युधिष्ठिरे तस्य महान् विश्वासः, सः कदापि असत्यं न वदेत् इति। अतः युधिष्ठिरे विद्यमानात् प्रत्ययात् विश्वासात् आजौ, आजि इत्युक्ते युद्धम् इति अर्थः, आजौ इति सप्तमी विभक्तिः युद्धे, शस्त्राणि नयनसलिचं सलिलं च तुल्यं मुमोच। शस्त्राणि अपि मुक्त परित्यक्तवान्, नयनसलिलं नेत्रजलं नाम अश्रुजलमपि मुक्तवान्। कदा मुक्तवान्? तुल्यं परित्यक्तवान्। तुल्यं नाम समानसमये युगपत् सः अस्त्राणि अपि त्यक्तवान्, अश्रुजलमपि त्यक्तवान्, अश्रुजलमपि मोचितवान् इति। अत्र सहोक्ति अलङ्कारः समानसमये अस्त्राणि अपि त्यक्तवान्, अश्रुजलमपि त्यक्तवान् इति कारणे सहोक्ति अलङ्कारः भवति अत्र। एवम् अश्वत्थामा हतः, अश्वत्थामा मारितः इति पृथा सूनुना कुन्तीपुत्रेण युधिष्ठिरेण स्पष्टम् उक्त्वा, सम्यक् स्पष्टतया उक्त्वा, शेषे अवशिष्टभागे गजः इति किल, गजः इति सत्यवाचा स्वैरं व्याहृतं, सत्यवाचा युधिष्ठिरेण स्वैरं व्याहृतं। स्वैरम् इति पदम् अत्र क्रिया अन्वयी भवति। स्वैरं नाम मृदु इति अर्थः, अथवा अत्र मन्दं नीचैः उक्तवान्, व्याहृतम् उक्तवान् इति। तत् श्रुत्वा, तद्वचनं श्रुत्वा तस्य राज्ञः प्रत्ययात्, तस्य युधिष्ठिरस्य विश्वासात्, नाम युधिष्ठिरे तस्य विश्वासः आसीत् इति कारणात्, दैत्यतनयः नाम पुत्रप्रसौ द्रोणाचार्यः आजौ युद्धे शस्त्राणि नयनसलिलं च तुल्यं, नयनसलिलम् अपि च तुल्यं मुमोच, शस्त्राणि अस्त्राणि अपि अस्त्राणि नयनसलिलम् अश्रुजलं तुल्यं समानसमये युगपत् मुमोच परित्यक्तवान्। व्याख्यां पठामः। अश्वत्थामा गुरुपुत्रः हतः मारितः इति एवं सत्यवाचा सत्यम् अविदथं वाक् वाणी यस्य सः तेन सत्यवाचा पृथा सूनुना पृथा पुत्रेण युधिष्ठिरेण स्पष्टम् उच्चैः उक्त्वा कथयित्वा शेषे अवशिष्टे वाक्ये स्वैरं मन्दं गज इति हस्ति इति व्याहृतं कथितं किल नूनं दैत्यतनयः दयिता दयालुः तनये पुत्रे यः सः। अत्र दयितः तनयः यस्य सः इति समासः इतोपि सम्यक् भवति। दयितः नाम प्रियः इति अर्थः। असौ सः तातः तत् अश्वत्थामा हतः इति श्रुत्वा आकर्ण्य तस्य सत्यवादिनः आज्ञः उपस्थिरस्य प्रत्ययात् विश्वासात् आजौ समरे शस्त्राणि आयुधानि नयनसलिलं च अपि तुल्यं समं मुमोच परित्यक्तवान्। अत्र परित्यक्तवान् मुमोच इति क्रियापदं नयनसलिलस्यापि भवति, शस्त्राणि अपि मुमोच, शस्त्राणामपि भवति इति कृत्वा अत्र तुल्ययोगिता अलङ्कारः भवति। सहोक्ति अलङ्कारः तु जनरञ्जकं भवति। अत्र वर्ण्यम् अवर्ण्यम् इति भेदः न भवति। तत्र तुल्ययोगिता अलङ्कारे तु द्वयोः वर्ण्यवस्तुनोः अथवा द्वयोः अवर्ण्यवस्तुनोः वा अथवा एकवर्ण्य एक अवर्ण्यवस्तुनोः वा धर्मैकत्वम् अस्ति चेत् तुल्ययोगिता भवति। किन्तु सहोक्ति अलङ्कारे तु धर्मैक्यत्वं भवेत् इति नियमः नास्ति। धर्मैक्यत्वं कदाचित् क्रियायां भवति, क्रियायाः भवति, कदाचित् गुणानामपि भवति। अस्मिन् श्लोके क्रियायाः धर्मैक्यत्वं दृश्यते। अस्मिन् श्लोके शस्त्राणि आजौ नयनसलिलं चापि तुल्यं मुमोच इति पङ्क्तिः इयासि ससन्दर्भं व्याख्यात इति प्रश्ने भवति। अग्रे अश्वत्थामा हा तात हा सुतवत्सल हा वृथा मदर्थ परित्यक्त जीवित हा शौर्यराशे हा शिष्यप्रिय हा युधिष्ठिरपक्षपातिन् इति रोदिति अश्वत्थामा हा तातः हा पिता हा सुतवत्सल ह पुत्रप्रिय वृथा मदर्थ परित्यक्ते जीवित मदर्थे मम कृते जीवितं त्यक्तवान् अस्ति भवान् हे शौर्यराशे शौर्याणां राशिः अस्ति पराक्रमाणां राशिः अस्ति द्रोणाचार्यः इति शौर्यराशे शिष्यप्रिय शिष्यः प्रियः यस्य अस्ति यस्य सः शिष्यप्रियः अस्ति युधिष्ठिरपक्षपातिन् युधिष्ठिरे तस्य पक्ष सः पक्षपाती अस्ति इति अत्र अश्वत्थामा सूचयति तस्मात् कारणात् एव सः युधिष्ठिरे विश्वसिति स्म युधिष्ठिरः उक्तवान् इति कारणात् एव सः शस्त्रं त्यक्तवान् अतः सः युधिष्ठिरपक्षपाती अस्ति इति कृत्वा युधिष्ठिर हे युधिष्ठिरपक्षपातिन् इति रोदनं करोति अश्वत्थामा सूतः कुमार अलम् अत्यन्तपरिदेवनकार्पण्येन इति अलम् अत्यन्तपरिदेवनं नाम विलापः विलापेन अलं कार्पण्येन अलं कार्पण्येन कार्पण्यम् इत्युक्ते द वीक्नेस् दट् प्रॉम्स् टु क्रै दौर्बल्यात् यत्र रोदनं क्रियते तद् कार्पण्यम् इति उच्यते अतः कार्पण्येन अलम् एवं परिदेवनेन कार्पण्येन च अलं पर्याप्तम् अश्वत्थामा श्रुत्वा वधं मम मृषा सुतवत्सलेन तात त्वया सह शरैः असवो विमुक्ताः जीवाम्यहं पुनरहो भवता विनापि क्रूरेऽपि तन्मयि मुधा तव पक्षपातः अत्रैव सहोक्त्यलङ्कारः इति अस्ति श्रुत्वा वधं मम मृषा मृषा नाम असत्येन असत्यम् इति अर्थः मृषा मम वधं श्रुत्वा मम वधं तु असत्यमासीत् एवम् असत्यं मम वधं श्रुत्वा असम्भवितं मम मरणं श्रुत्वा सुतवत्सलेन पुत्रप्रियेण त्वया त्वया इति पदस्य विशेषणमस्ति सुतवत्सलेन इति त्वया सुतवत्सलेन त्वया शरैः सह बाणैः सह असवः प्राणाः विमुक्ताः त्यक्ताः अत्रापि तुल्ययोगिता एव भवेत् कारणं धर्मैकत्वं दृश्यते शरैः सह असवः शरैः असवः च विमुक्ताः शरैः सह असवः अपि विमुक्ताः इति विमुक्ताः इति शरै विमुक्ताः इति धर्मैकत्वम् अस्ति इति कारणात् अत्रापि तुल्ययोगिता अलङ्कारः भवति पुनः अहो जीवामि अहम् इतोपि जीवामि भवता विनापि भवन्तं विनापि अहं जीवामि इति भवान् पक्षपातं दर्शितवान् अस्ति मयि इति वदति मम वधं श्रुत्वा भवान् प्राणान् त्यक्तवान् किन्तु भवतः मरणं श्रुत्वा अहम् इतोपि जीवामि इति भवान् स्वस्य प्राणपरित्यागेन मां रक्षितवान् इव अस्ति भवता विना अपि भवन्तं मम पितरं विना अपि जीवामि अहो क्रूरे अपि मयि तव पक्षपातः मुधा मुधा वृथा वृथा क्रूरे मयि अतिकठोरः अस्मि अहं तादृशे मयि भवान् पक्षपातं दर्शितवान् अस्ति मृषा मिथ्या असत्यं मम वधं श्रुत्वा मम मरणं श्रुत्वा सुतवत्सलेन पुत्रप्रियेण भवता त्वया शरैः सह बाणैः सह प्राणाः अपि परित्यक्ताः इति उक्त्वा अहो इति वदति अहो पुनः जीवा भवता विना अपि भवतः मरणं श्रुत्वा अपि भवता विना अपि अहं जीवामि इति क्रूरे मयि दुष्टे मयि अश्वत्थामी त तव पक्षपातः भवतः पक्षपातः मुधा व्यर्था व्यर्थं तव पक्षपातः व्यर्थं भवति इति फेवरेटिज़म् इस् अ वेस्ट् इति वदति. तदेवं भवति मम मरणवार्तां श्रुत्वा भवान् प्राणान् त्यक्तवान् किन्तु अहम् इतोपि भवतः मरणात् परमपि अहं जीवामि इति कारणात् भवता यत् प्रियं दर्शितं तत्सर्वं व्यर्थम् पुत्रस्य मरणवार्तां श्रुत्वा भवान् प्राणान् परित्यक्तवान् अस्ति किन्तु सः पुत्रः इतोपि जीवति इति भवतः प्राणत्यागः व्यर्थः. आत्मानं क्रूरम् इति वदति अश्वत्थामा. दयां विना अहम् इतोपि जीवामि इति अश्वत्थामा विलपति. गिल्टी कान्शियस् अस्ति तस्य इति व्याख्यां पठामः. हे तात हा पितः सुतवत्सलेन सुते पुत्रे वत्सलः प्रियः तेन त्वया भवता मम मे अश्वत्थाम्नः मृषा मिथ्या वधं मृत्युं श्रुत्वा आकर्ण्य शरैः बाणैः सह साकम् असवः प्राणाः विमुक्ताः परित्यक्ताः अहम् अश्वत्थामा पुनः भूयः भवता विनापि तातेन विना अपि जीवामि जीवनं धारयामि. अहो आश्चर्यं तत् तथाविधे क्रूरे अपि मयि निष्ठुरे अपि मयि पुत्रे तव ते पक्षपातः स्नेहत्वं मुधा व्यर्थम्. मम मरणं श्रुत्वा पुत्रवत्सलः भवान् पुत्रप्रियः भवान् प्राणान् बाणैः सह प्राणान् अपि त्यक्तवान् इति एकं वाक्यम्. अग्रिमं वाक्यं भवता विना अपि पुनः अहं जीवामि नाम भवता विरहितः अहं वियुक्तः अहम् इतोपि जीवामि इति अग्रिमं वाक्यम्. क्रूरे अपि मयि तव पक्षपातः मुधा. अहं क्रूरः अस्मि कारणं किं भवतः भवान् मम मरणवार्तां श्रुत्वा प्राणान् त्यक्तवान् किन्तु भवतः मरणवार्तां श्रुत्वा अहम् इतोपि जीवामि इति अहम् इति कारणात् अहं क्रूरः अस्मि. एतादृशे मयि दयाहीने मयि नाम दयारहिते मयि अश्वत्थाम्नि तव भवतः द्रोणाचार्यस्य पक्षपातः स्नेहः मुधा व्यर्थम्. स्नेहकारणात् एव भवान् प्राणान् त्यक्तवान् अत एव अस्मिन् श्लोके सुतवत्सलः इति पदं प्रयुक्तमस्ति. किन्तु सः पुत्रः यस्य मरणवार्तां श्रुत्वा भवान् प्राणान् त्यक्तवान् सः पुत्रः दयां विना भवतः मरणं श्रुत्वापि जीवति तस्मिन् भवान् स्नेहं प्रदर्शितवान् इति व्यर्थं किल इति पृच्छति. अत्र तुल्ययोगिता अलङ्कारः एव उचितः भवति इति मोहम् उपगतः मूर्छां प्राप्नोति अश्वत्थामा. सूतः समाश्वसितु समाश्वसितु कुमारः इति अश्वत्थाम्नम् आश्वासयितुं प्रयत्नं करोति आश्वासनं करोति सूतः. तदापि अश्वत्थामा मूर्छितः एव भवति कारणं कृपाचार्यः यावत् प्रविशति तावत्. इदानीं कृपः प्रविश्य वदति कृपः सोद्वेगं निश्वस्य दिक् सानुजं गुरुपतिं दिक् अजातशत्रुं दिक् भूपतीन् विफलशस्त्रभृतो दिक् अस्मान् केशग्रहः खलु तदा द्रुपदात्मजायाः द्रोणस्य च अद्य लिखितैः इव वीक्षितो यैः. ये ये जनाः तदा द्रौपद्याः केशग्रहणं चित्रलिखितः लिखितमिव पश्यन्तः आसन् ते एव जनाः
अद्य द्रोणाचार्यस्य केशग्रहणं, कारणं द्रोणाचार्यस्य केशं गृहीत्वा एव मारितवान् दृष्टद्युम्नः, अतः अद्य द्रोणाचार्यस्य केशग्रहणमपि तेनैव प्रकारेण यथा चित्रलिखितः इव दृष्टः आसीत् तथा द्रोणाचार्यस्य मरणं केशग्रहणमपि अद्य सर्वैः चित्रलिखितं लिखिताम् इव दृष्टम्। धिक् सानुजं कुरुपतिम्, अनुजेन सह विद्यमानं कुरुपतिं धिक् धिक् करोति। कुरुपतिः दुर्योधनः, सानुजः दुर्योधनः अस्ति, नाम दुःशासनसहितं दुर्योधनं धिक्। जुगुप्साजनकं निन्दार्थकं पदं धिक् इति, अहो इव, अहो इति पदं तु यत्र दुःखसन्दर्भेषु प्रयुज्यते, एतत्तु यदा जुगुप्सां जनयितुं वा नो चेत् निन्दनं कर्तुं वा प्रयुज्यते। धिक् अजातशत्रुम्, अजातशत्रुः युधिष्ठिरः, अतः युधिष्ठिरमपि धिक्। धिक् भूपतीन् विफलशस्त्रभृतः, भूपतीन् धिक् राजानः, राज्ञः धिक्। धिक् कीदृशाः भूपतयः इत्युक्ते विफलशस्त्रभृतः, सर्वेपि भूपतयः शस्त्राणि बिभ्रन्ति किन्तु तत्सर्वं विफलमस्ति, प्रयोजनं नास्ति तैः शस्त्रैः, तादृशान् भूपतीन् धिक्। विफलं शस्त्रं बिभर्ति इति विफलशस्त्रभृत्, तस्य बहुवचनं द्वितीयाविभक्ति बहुवचनं विफलशस्त्रभृताः भूपतीन् इति, भूपतीन् इति पदस्य विशेषणमस्ति विफलशस्त्रभृताः द्वितीयाविभक्तिः बहुवचनम्। ये राजानः मुधा शस्त्राणि बिभ्रति तान् राज्ञः धिक् इति। धिक् अस्मान्, अत्र विद्यमानान् अस्मादृशान् सर्वान् अपि धिक्। यैः तदा द्रुपदात्मजायाः केशग्रहः, तदा नाम सभायां, राजसभायां, दुर्योधनस्य सभायां, द्रुपदस्य आत्मजा, द्रुपदात्मजा द्रौपदी, तस्याः द्रुपदात्मजायाः केशग्रहः, केशग्रहणम् अद्य द्रोणस्य केशग्रहः, द्रोणाचार्यस्य च केशग्रहः लिखितैः इव वीक्षितः। यैः लिखितैः नाम चित्रे आलिखितम् इव ये दृष्टवन्तः, यैः दृष्टमासीत् सर्वान् धिक् करणीयम्। यै तदा द्रौपद्याः केशग्रहः, अद्य द्रोणस्य च केशग्रहः च लिखितैः इव यैः वीक्षितः, चित्रलिखितम् इव यैः राजभिः वीक्षितम् आसीत् तान् सर्वान् धिक् इति। अत्र काव्यलिङ्ग अलङ्कारः, कारणम् अत्र कारणम् उच्यते। प्रथमं दुर्योधनं धिक् इति वदति, किमर्थं दुर्योधनं प्रथमं वदति इत्युक्ते तदा यदा द्रौपद्याः केशग्रहणम् आसीत् तदा दुर्योधनः एव कारणमासीत्। अनन्तरम् अजातशत्रुं धिक् इति युधिष्ठिरं धिक् करोति, तद् कारणम् अद्यतनद्रोणाचार्यस्य केशग्रहणस्य प्रमुखं कारणं भवति युधिष्ठिरः इति कारणात् तस्य धिक् करोति। अनन्तरं सर्वान् भूपतीन् धिक् इति वदति, अस्मान् इति अस्मादृशान् ब्राह्मणान् अपि ये धर्म अवलम्बिनः सन्ति तानपि धिक् इति वदति। किमर्थं केवलं दुर्योधनः धिक् करणीयः, तत्र न केवलं दुर्योधनः आसीत् यदा द्रौपद्याः केशग्रहणं, तदा सर्वे अपि राजानः भीष्मसदृशाः आप्तजनाः अपि आसन् तत्र। अत्र दुर्योधनं दिक् इति यदा वदति तदा सानुजं दुर्योधनं कुरुपतिम् इति वदति, दुःशासनसहितं दुर्योधनम् इति वदति। कारणं दुःशासनः अपि अत्र प्रमुखं कारणं भवति द्रौपद्याः केशग्रहणसन्दर्भे। अनन्तरम् अजातशत्रुम् इति युधिष्ठिरं दिक् करोति। अनन्तरम् अजातशत्रुं दिक् इति अद्य द्रोणाचार्यस्य केशग्रहणस्य कारणं युधिष्ठिरः इति कृत्वा तं दिक् करोति। अनन्तरं शस्त्रभृतः सर्वानपि भूपतीन् दिक्, कारणं तेषां शस्त्रग्रहणेन विफलशस्त्रग्रहणम् आसीत् तेषां सर्वेषामपि, अतः विफलशस्त्र शस्त्रभृतः सर्वान् भूपतीन् धिक् इति वदति। अनन्तरं धिग् अस्मान्, अस्मादृशाः आप्तजनाः अपि तथा द्रौपद्याः केशग्रहणसन्दर्भे सभायाम् आसन्, अतः अस्मान् अपि धिक् इति वदति। अतिसुन्दरः श्लोकः, तदपि लिखितैः इव वीक्षितः यैः इति उच्यते श्लोकः, चित्र आलेख्यमिव सर्वे पश्यन्तः आसन् इति उक्तमस्ति श्लोके। व्याख्यां पठामः। सानुजम् अनुजैः सहितं कुरुपतिं दुर्योधनं धिक् धिक्कारोऽस्ति। अजातशत्रुं न जातः शत्रुः यस्य तम् अनुत्पन्नरिपुं युधिष्ठिरं, नाम यस्य शत्रुः न जातः, यस्य शत्रुः एव न वर्तते सः अजातशत्रुः इति उच्यते। विफलशस्त्रधिक् युधिष्ठिरं धिक् विफलशस्त्रभृतः, विफलानि असफलानि शस्त्राणि आयुधानि बिभ्रति धारयन्ति इति तान् भूपतीन् नृपतीन् धिक् अस्मान्, अत्र अश्वत्थामादिवीरान् इति अस्ति, कृपादिवीरान् इति परिवर्तनं करणीयं। कृपादिवीरान् धिक् यैः वीरैः तदा कौरवसभायां युद्धक्षेत्रे च, अत्र युद्धक्षेत्रे च इति न युज्यते, तदा इत्यस्य अर्थः तदा कौरवसभायाम् इत्येव, तदा कौरवसभायाम् अद्य युद्धक्षेत्रे, अद्य युद्धक्षेत्रे इति वक्तव्यम्। तदा कौरवसभायां द्रुपदात्मजायाः द्रौपद्याः द्रोणस्य च, नाम अद्य इति पदस्य युद्धक्षेत्रे, अद्य युद्धक्षेत्रे द्रोणस्य च आचार्यस्य च केशग्रहः केशेषु ग्रहः कचग्रहणं लिखितैः चित्र अङ्कितैः इव वीक्षितः अवलोकितः अद्य अस्मिन् दिने खलु किल तान् अपि धिक् इति शेषः, सर्वान् धिक्।